स्वप्नवास और दत्तम की सुक्तियाँ। एक, काल क्रमेण जगतः परिवर्तमाना चक्रार पंक्तिरिव गच्छति भाग्य पंक्ति। दो, प्रद्वेषो बहुमानो वा संकल्पादुपजायते। तीन, सुखमर्थो भवेद दातुम सुखम प्राणाः सुखम तपः सुखमन्यद भवेत सर्वं दुखः न्यासस्य रक्षणम्। चार, नहि सिद्ध्यवाक्यान्युत्क्रम्य गच्छति विधिः सुपरीक्षितानि। पाँच, तस्मिन् सर्वं धीनं हि यत्राधीनो नराधिपः। छः, दुःखं त्यक्तुं बद्धमूलो अनुरागः स्मृत्वा स्मृत्वा याति दुःखं नवत्वं यत्रात्वेषा यद् विमुच्येह बाष्पं प्राप्ता निर्ल्या याति बुद्धि प्रसादम्। सात, स्त्री स्वभावस्तु कातरः। आठ, गुणानां वा विशालानां सत्काराणाञ्च नित्यशः कर्तारः सुलभालोके विज्ञातस्तु दुर्लभा। नौ, प्राणिप्राप्तरूजा पुनर्न शयनं शीघ्रं स्वयं मुञ्चति। दस, कातरा येऽप्यशक्ता वा नोत्साहस्ते सुजायते प्रायेण हि नरेन्द्रश्रीः सोत्साहैरेव भुज्यते। ग्यारहमा, कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदेके घटं धारयन्ति एवं लोकस्तुल्यधर्मो वनानां काले काले छिद्यते रुह्यते च।